ओम नमो भगवते वासुदेवाय। अथ नवमोऽध्यायः। श्रीशुक उवाच, तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत, सोमपीठं सुरापीठमन्नादमिति शुश्रुम। स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः अवदत् यस्य पितरो देवा स प्रश्रयं नृप। स एव हि ददौ भागं परोक्षमसुरान् प्रति, यजमानो वहद्भागं मातृस्नेहवशानुगः। तद्देव हेलनं तस्य धर्मालीकं सुरेश्वरः, आलक्ष्यतरसा भीतस्तच्छीर्षाण्यच्छिनदृशा। सोमपीठं तु यत्तस्य शिर आसीत् कपिञ्जलः, कलविङ्कः सुरापीठमन्नादं यत्सतित्तिरिः। ब्रह्महत्यामञ्जलिना जग्राह यदपि ईश्वरः। संवत्सरान्ते तदघं भूतानां स विशुद्धये, भूम्यं बुद्रुमयोषिभ्यश्चतुर्धा व्यपचद्धरिः। भूमिस्तुरीयं जग्राह खातपूरवरेण वै, ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते। तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमाः, तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते। शश्वत्कामवरेणां हस्तुरीयं जगृहुस्त्रियः, रजोरूपेण तास्वं होमासि मासि प्रदृश्यते। द्रव्यभूयो वरेणापस्तुरीयं जगृहुर्मलम्, तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन्। हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे, इन्द्रशत्रो विवर्धस्व माचिरं जहि विद्विषम्। अथान्वाहार्यपचनादुत्थितो घोरदर्शनः, कृतान्तैव लोकानां युगान्तसमये यथा। विश्वग्विवर्धमानं तमिषु मात्रं दिने दिने, दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसं। तप्तताम्रशिखास्मश्रुं मध्याह्नार्कोग्रलोचनम्, देदीप्यमाने त्रिशिखे शूला आरोप्य रोदसी। नृत्यन्तमुन्नदन्तं च चालयन्तं पदामहीं, दरीगम्भीरवक्त्रेण पिबता च नभस्थलं, लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम्। महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः, वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशोदश। येनावृता इमे लोकास्तमसा त्वाष्ट्रमूर्तिना, स वै वृत्र इति प्रोक्तः पापः परमदारुणः। तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभाः, स्वै स्वैर्दिव्यास्त्रशस्त्रौघैः सोग्रसत्तानि कृत्स्नशः। ततस्ते विस्मिताः सर्वे विषण्णाग्रस्ततेजसः, प्रत्यञ्चमादिपुरुषमुपतस्थौ समाहिताः। देवा ऊचुः, वायवम्बराग्न्यक्षितयस्त्रिलोका ब्रह्मादयो ये वयमुद्विजन्तः, हरामयस्मै बलिमन्तकोऽसौ बिभेति यस्मादरणं ततो नः। अविस्मितं तं परिपूर्णकामं स्वेनैव लाभेन समं प्रशान्तम्, विनोपसर्पत्य परं हि बालिशः स्वलाङ्गुलेनातितर्ति सिन्धुम्। यस्योरुशृङ्गे जगतीं स्वनावं मनुर्यथा बध्यततारदुर्गम्, स एव नत्वाष्ट्रभयाद्दुरन्तात्राताश्रितान् वारिचरोऽपि नूनम्। पुरा स्वयंभूरपि संयमाम्भस्युदीर्णवातोर्मिरवैः कराले, एकोरविन्दात् पतितस्ततार तस्माद्भयाद् येन स नोऽस्तु पारः। य एक ईशो निजमाययानः ससर्जयेनानुसृजाम विश्वम्, वयं न यस्यापि पुरः समीहतः पश्यामलिङ्गं पृथगीशमानिनः। यो न सपत्नैर्भृशमर्द्यमानान् देवर्षितिर्यं ऋषु नित्य एव, कृतावतारस्तनुभिः स्वमायया कृत्वात्मसात्पाति युगे युगे च। तमेव देवं वयमात्मदैवतं परं प्रधानं पुरुषं विश्वमन्यं, प्रजाम सर्वे शरणं शरण्यं स्वानां सनोधास्यति सम्महात्मा। श्रीशुक उवाच, इति तेषां महाराज सुराणामुपतिष्ठतां, प्रतीच्यां दिश्यभूदाविः शङ्खचक्रगदाधरः, आत्मतुल्यै षोडशभिर्विना श्रीवत्सकौस्तुभौ, पर्युपासितमुन्निद्र शरदं ब्रूहे क्षणम्। दृष्ट्वा तमवनौ सर्व ईक्षणाल्लादविक्लवाः, दण्डवत्पतिता राजञ्छनैरुत्थाय तुष्टुवुः। देवा ऊचुः, नमस्ते यज्ञवीर्याय वयसे उतते नमः, नमस्ते ह्यस्तचक्राय नमः सुपुरुहूतये। यत्ते गतीनां तिसृणामीशितुः परमं पदं, नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति। ओम नमस्तेऽस्तु भगवन्नारायण वासुदेवादिपुरुष महापुरुष महानुभाव, परममंगल परमकल्याण परमकारुणिक केवल जगदाधार, लोकैकनाथ सर्वेश्वर लक्ष्मीनाथ, परमहंस परिव्राजकैः परमेणात्मयोगसमाधिना परिभावित परिस्फुट पारमहंस्य धर्मेणोद्घाटित तमः कपाट द्वारे चित्ते पावृत आत्मलोके स्वयं उपलब्ध निज सुखानुभवो भवान्। दुर्वबोध इव तवायम् विहार योगो यत शरणो शरीर इदमनवेक्षितास्मत् समवाय आत्मनैवा विक्रियमाणेन सगुण मगुण सृजसि पासि हरसि। अथ तत्र भवान् किम् देवदत्तवदिह गुण विसर्गपतितः पारतन्त्रेण स्वकृतकुशलाकुशलम् फलमुपाददात्याहोऽस्विदात्मा राम उपशमशीलः समञ्जसदर्शन उदास्त इति ह वाव न विदामः। न हि विरोध उभयम् भगवत्य परिगणितगुणगणे ईश्वरे नव गाह्यमाहात्म्येर्वाचीन विकल्प वितर्क विचार प्रमाणाभास कुतर्कशास्त्रकलिलान्तःकरणाश्रय दुरवग्रहवादिनाम् विवादानवसर उपरत समस्तमायामये केवल एवात्ममायामन्तर्धाय कोऽन्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात्। समविषममतीनाम् मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम् स एव हि पुनः सर्ववस्तूनि वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणभूतः सर्वप्रत्यगात्मत्वात् सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः। अथः वाव तव महिमामृतरस समुद्र विप्रुषा सकृतवलीढया स्वमनसि निष्यम्दमाना नवरतसुखेन विस्मारितदृष्टश्रुत विषयसुखलेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि नितराम् निरन्तरम् निर्वृतमनसः कथमुह वा एते मधुमथन पुनः स्वार्थकुशलायात्मप्रियसुहृदः। साधवस्त्वच्चरणाम्बुजानुसेवाम् विसृजन्ति न यत्र पुनरयम् संसारपर्यावर्तः। त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयो दितिजदनुजादयश्चापि तेषामनुपक्रम समयोऽयमिति स्वात्ममायया सुरनरमृगमिश्रित जलचराकृतिभिर्यथापराधम् दण्डम् दण्डधर दधर्थ एवमेनमपि भगवम् जहित्वाष्ट्रमुत यदि मन्यसे अस्माकम् तावकानाम् तव नतानाम् तततामह तव चरणनलिनयुगलध्यानानुबद्धहृदयनिगडानाम् स्वलिङ्गविवरणेनात्मसात्कृतानामनुकम्पानुरञ्जित विशदरुचिरशिशिरस्मितावलोकेन विगलितमधुरमुखरसामृतकलया चान्तस्तापमनघार्हसि शमयितुम्। अथ भगवन्स्तवास्माभिरखिलजगदुत्पत्तिस्थितिलयनिमित्ताय मानदिव्यमाया विनोदस्य सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्मस्वरूपेण प्रधानरूपेण च यथादेशकालदेहावस्थानविशेषम् तदुपादानोपलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण आकाशशरीरस्य साक्षात् परब्रह्मणः परमात्मनः कियानिह वा अर्थविशेषो विज्ञापनीयः स्याद् विस्फुलिङ्गादिभिरिव हिरण्यरेतसः। अत एव स्वयम् तदुपकल्पयास्माकम् भगवतः परमगुरोस्तव चरणशतपलाशच्छायाम् विविधवृजिनसंसारपरिश्रमोपशमनीमुपसृतानाम् वयम् यत्कामेनोपसादिताः। अथो ईश जहित्वाष्ट्रम् ग्रसन्तम् भुवनत्रयम् ग्रस्तानि येन नः कृष्ण तेजांस्यस्त्रायुधानि च हंसाय दर्रनिलयाय निरीक्षकाय कृष्णाय मृष्टयशसे निरुपक्रमाय सत्सङ्ग्रहाय भवपान्थ निजाश्रमाप्ता वन्ते परीष्टगतये हरये नमस्ते। श्रीशुक उवाच अथैव मीडितो राजन् सादरम् त्रिदशैर्हरिः स्वमुपस्थानमाकर्ण्य प्राहतानभिनन्दितः। श्रीभगवानुवाच प्रीतोऽहं वसुरश्रेष्ठा मदुपस्थान विद्यया आत्मैश्वर्यस्मृतिः पुंसाम् भक्तिश्चैव यया मयि किम् दुरापम् मयि प्रीते तथापि विपुदर्शभाः मय्येकान्तमतिर्नान्यन्मत्तो वाञ्छति तत्त्ववित् न वेदकृपणः श्रेय आत्मनो गुणवस्तुदृक् तस्य तानिच्छतो यच्छेद् यदि सोऽपि तथाविदः। स्वयम् निःश्रेयसम् विद्वान्न वक्त्यज्ञाय कर्महि नरातिरोगिणोपथ्यम् वाञ्छतो हिभिषक्तमः मघवन् यातभद्रम् वो दध्यम् च मृषिसत्तमम् विद्याव्रततपः सारम् गात्रम् याचतमाचिरम् स वा अधिगतो दध्यम् अश्विभ्याम् ब्रह्म निष्कलम् यद्वा अश्वशिरो नाम तयोरमरताम् व्यधात् दध्यङ्गाथर्वणस्त्वष्ट्रे वर्मा भेद्यम् मदात्मकम् विश्वरूपाय यत्प्रादात् त्वष्टा यत्त्वमधास्ततः। युष्मभ्यं याजितोऽश्वेभ्यां धर्मज्ञोऽङ्गानि दास्यति ततस्तैरायुधश्रेष्ठो विश्वकर्म विनिर्मितः येन वृत्रशिरो हर्ता मत्तेज उपब्रह्मितः तस्मिन् विनिहते यूयं तेजोऽस्त्रायुधसम्पदः भूया प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान् ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नवमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।